श्रीमद्भगवद्गीता एकादशोऽध्यायः विश्वरूपदर्शनयोगनाम अर्जुन उवाच मदनोग्रहाय परमं गृह्यमध्यात्मसंगितं यत्तयोक्तं वचस्तेन मोहोऽयं विगतो मम भवापयो हि भूतानां सुतौ विस्तर्षो मयां त्वत्तः कमलपत्राक्ष महात्मामपि चाव्ययम् एवमेतद्यथार्थ त्वमात्मानं परमेश्वर द्रष्टुमिच्छामि ते रूप महेश्वरं पुरुषोत्तम मन्यसे यदि तत् शक्यं मया द्रष्टुमिति प्रभो योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् श्रीभगवान् उवाच पश्य मे पार्थरूपाणि शतशोः सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च पश्यादित्यान् वसुनरुद्रानश्विनौ मरुतस्तथा बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरं मम देहे गुडाकेश यच्चान्न द्रष्टुमिच्छसि न तु मां शक्यसे द्रष्टुं मनेनैव सचक्षुषा दिव्यं ददामि ते चक्षु पश्य मे योगमैश्वरम् सञ्जय उवाच एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिं दर्शयामाश पार्थाय परमं रूपमैश्वरम् अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् अनेकदिव्याभरणं दिव्यानेकोद्धुतायुधं दिव्यमाल्यं वरधरं दिव्यगन्धानुलेपनं सर्वाश्चर्यमयं देवं अनन्तं विश्वतो मुखम् दिवि सूर्यसहस्रस्य भवेदयुगपदुत्थिता यदि भासदिशि शाश्याद् भासस्तस्य महात्मनः तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तं मनेकधा अपश्य देवदेवस्य शरीरे पाण्डवस्तदा ततः स विस्मयाविष्टो हिष्टरो माधनञ्जय प्रणम्य शिरसा देवं कृताञ्जलिरभाषत अर्जुन उवाच पश्यामि देवांस्तव देवदेहीं सर्वांस्तथा भूतविशेषसंहान् ब्रह्मानमीशं कमलासनस्थ मिशिंश सर्वानुरांश्य दिव्यान् अनेकबाहोदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपं नान्तं न मध्यं न पुनस्तवादिम् पश्यामि विश्वेश्वर विश्वरूप किरीटिनं गदिनं चक्रिणं च तेजो राशिं सर्वतो दीप्तिमन्तं पश्यामि त्वां दुर्निरीक्षं समन्तात् दीप्तानलार्कद्युतिमप्रमेयम् त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे अनादिमध्यान्तमनन्तवीर्यम् अनन्तबाहुं शशिशूर्यनेत्रम् पश्यामि त्वामरिक्तहुताशवक्त्रम् स्वतेजसा विश्वमिदन्तवन्तम् द्यावापृथिव्योरिदमन्तरम् हि व्याप्तम् द्वैकेन दिशश्च सर्वा दृष्ट्वाद्भुतमरूपमुग्रन्तवेदम् लोकत्रयं प्रवचितं महात्मन् अमीहि त्वामसुरसंहा विशन्ति केचिदभीताः प्राञ्जलयो गृणन्ति स्वस्तीनुक्त्वा महर्षिसिद्धसंहा स्तुवन्ति त्वां स्तुतिभिः पुष्कराभि
रुद्रादित्या वसवो ये च सद्या विश्वेयश्नो मरुतश्चश्म पाश्च गन्धर्वयक्षासुरसिद्धसंहा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे रूपं महत्ते बहुवक्त्रनेत्रम् महाबाहो बहुबाहुरुपादम् बहूदरं बहुद्रष्टाकरालम् दृष्ट्वा लोकाः प्रवथितास्तथाहम् नभस्पृशं दीप्तमनेकवर्णं वत्ताननं दीप्तविशालनेत्रम् दृष्ट्वा हि त्वां प्रवथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णुं दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालान्नलसन्निभानि दिशो न जानेन लभे च शर्म प्रसीद देवेश जगन्निवास अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घै भीष्मो द्रोणः सुतपुत्रस्तथासौ सहास्मदैयैरपि योधमुख्यै वक्त्राणि ते त्वरमाना विशन्ति दंष्टाकरालानि भयानकानि केचिद् विलग्नादशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गै यथा नदीनां बहुवम्बुवेगा समुद्रमेवाभिमुखा द्रवन्ति तथा तवामी नरलोकवीरा वीषन्ति वक्त्राण्यभिज्वलन्ति यथा प्रदीप्तं ज्वलनं पतङ्गा वीषन्ति नाशाय समृद्धवेगा तथैव नाशाय विशन्ति लोका स्तवापि वक्त्राणि समृद्धवेगा लेलीयसे ग्रसमानः समन्तान् लोकान् समग्रान् वदनैर्ज्वलद्भिः तेजोभिरापूर्यजगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णुं आख्याहि मेको भवानुग्ररूपो नमोस्तु ते देववर प्रसीद विज्ञातुमिच्छामि भवन्तमाद्यं नहि प्रजानामि तव प्रवृत्तिं श्री भगवान उवाच कालो अस्मि लोकक्षयकृत् प्रविद्धो लोकान् समाहर्तमिह प्रवित्तः रीते पित्वां न भविष्यन्ति सर्वे यवस्थिताः प्रत्यनीकेषु योधा तस्मात्तमुत्थिष्ट यशोलवर्ष्व जित्वा शत्रुणभोंक्ष राज्यं समृद्धं मयैवैते निहता पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् द्रोणञ्च भीष्मञ्च जयद्रथञ्च कर्णं तथान्यानपि योधवीरान् मया हतास्त्वं जहिमावथिष्टा युद्धस्वजेतासिरने सपत्नान् सञ्जय उवाच एतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिरवेपमानः किरीटी नमस्कृत्वा भूयवाह कृष्णं सगदगदं भीतभीतः प्रणम्य अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहिष्यत्यनुरज्यते च रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घा तस्माच्च तेन नमिरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे अनन्तदेवेश जगन्निवास त्वमक्षरं सदसततत्परं यत् त्वमादिदेवः पुरुषः पुराणः त्वमस्य विश्वस्य परं निधानम् वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूपम् वायुर्यमो अग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च नमो नमस्तेऽस्तसहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते नमः पुरस्तादतपृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोऽसि ततोऽसि सर्वः सखेति मत्वा प्रसवं यदुक्तं हे कृष्ण हे यादव हे सखेति अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वापि यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु एको अथवापि अच्युत्तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् न तत्समोहस्तवधिकः कुतन्यो लोकत्रयप्यप्रतिमप्रभाव तस्मात् प्रणम्य परिधायकायं प्रसादये त्वामहमीशमीड्यं पितेव पुत्रस्य सखेव सख्यो प्रियः प्रियायाहसि देव सोढुम् अदिष्टपूर्वं हिषितोष्म दृष्ट्वा भयेन च प्रवतितं मनो मे तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास किरीटिनं गदिनं चक्रहस्तम् मिच्छामि त्वां द्रष्टुमहं तथैव तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्नेन नदीष्टपूर्वं न वेदैरज्ञाध्यानैर्न दानै न च क्रियाभिर्न तपोभिरुग्रैः एवं रूपः शक्यहं निलोके द्रष्टुं त्वदन्नेन कुरु प्रवीर मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमिदं ममेदं व्यापेत भीप्रीतमना पुनस्त्वं तदेव मे रूपमिदं प्रपश्य संजय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा सकं रूपं दर्शयामाश भूयः आश्वासयामाश च भीतमेनं भूत्वा पुनः साम्यवपुर्महात्मा अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव साम्यं जनार्दन इदानीमस्मि संवृत्तः सचेताः प्रगतिं गतः श्रीभगवानुवाच सुदूरदर्शमिदं रूपं दृष्टवानशीयं मम देवाय पश्य रूपस्य नित्यं दर्शनकाङ्क्षिणः नाहं वेदैर्न तपसा न दानेन न चेज्जया शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा भक्तया त्वनन्नया शक्य अहमेवं विधोऽर्जुन जातुं द्रष्टुं च तत्त्वेन प्रवेष्टुञ्च परन्तप मत्कर्मकृणमत्परमो मदभक्तः सङ्गवर्जितः निर्वैरः सर्वभूतेषु यः समामेति पाण्डव इति श्रीमहाभारते शतसहस्रायां संहितायां वैयाशिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगनाम एकादशोऽध्यायः नमो ब्रह्मण देवाय गोब्राह्मणहिताय च जगद्धीताय कृष्णाय गोविन्दाय नमो नमः।